पुनः प्रारभामहे। इदानीं सम्यक् श्रूयते अस्तु। एत्येतत्युट्सु इत्यत्र एत्येतत्युट्सु इति एकमेव पदं विद्यते। अत्र षष्ठाध्यायस्य प्रथमपादस्य नवाशीतितमं सूत्रम् आद्गुणः इत्यतः आत् इति, वृद्धिरेचि इत्यतः वृद्धिः, एचि इति अनुवर्तते। आत् इति पञ्चमी विभक्तिः, अवर्णात् इति तस्य अर्थः, एत्येतत्युट्सु इति सप्तमी विभक्तिः, तस्य अर्थः एतेषु परेषु इति। किं भवति अवर्णात् एत्येतत्युट्सु वृद्धिः भवति? कदा भवति? संहितायां सत्यां एकः पूर्वपरयोः भवति, पूर्वपरयोः स्थाने भवति इत्यर्थः। इदानीं विधिसूत्रमस्ति एतत्। अस्य एति एधति इति, एत्येतत्युट्सु इति किम्? तत्र पदत्रयं विद्यते, एति एधति उट्सु ऊट् इति। तत्र एति इत्युक्ते इण् धातोः निर्देशः, एति इत्यत्र इण् धातोः निर्देशः, एधति इत्यत्र एध् धातोः निर्देशः, एचि इति अनुवृत्तिः, एचि इति अनयोः विशेषणं भवति। इत्युक्ते एजादौ इन्दातौ एजादौ इण्धातौ एजधातौ च परे इत्यर्थः। एत्येतत्युट्सु नाम एजादौ इण्धातौ एजधातौ च परे किं भवति? ऊटि च परे किं भवति? वृद्धिः भवति। ऊट् नाम किम् इति अनन्तरं पश्यामः। इदानीमेकम् उदाहरणं स्वीकुर्मः। उप एति इति उदाहरणं स्वीकुर्मः। अत्र अकार एकारयोः, अत्र एति इति रूपम्, एति इति इण् धातोः एव रूपम्, एति इतः इति लट्लकारस्यैव रूपम्। अत्र एति एति इति इण् धातोः रूपम् एजादिः वर्तते, अतः एजादिः इण् धातुः अस्ति। अवर्णात् एजादिः इण् धातुः अस्ति चेत् वृद्धिः भवति। इदानीं प्रश्नः उदेति, किमर्थम् एतदुच्यते इति? अकार एकारयोः वृद्धिरेव किल इति। तत्र एङि पररूपम् इति, एङि यङः पदान्तादति इति पूर्वरूपसन्धिः अस्ति। इदानीं रामः अपि पूर्वरूपसन्धिः, सारि रामो अपि इत्यत्र पूर्वरूपसन्धिः विद्यते। एवमेव हे हरे, अवमाम् इत्यत्र हरेव इति पूर्वरूपसन्धिः विद्यते। एवम् अत्र पररूपसन्धिः अपि अस्ति, पूर्वरूपसन्धिः इति अस्ति, पररूपसन्धिः इत्यपि अस्ति। पररूपसन्धिः किं वदति? एङि पररूपम् इति एकं सूत्रं विद्यते, तदग्रे पश्यामः। अग्रे वक्ष्यमाणः सूत्रं तत्। एङि पररूपम् इति सूत्रे यदा यदा एजादिधातुः वर्तते तदा गुणः भवति। इदानीम् उप ओषति, उपोषति, प्र एजते इत्यत्र प्रेजते इति रूपं भवति, तत्र गुणः भवति। एतत् सूत्रं गुणस्य अपवादात्मकं सूत्रम्। एत्येतत्युट्सु इति गुणस्य अपवादात्मकं सूत्रम्। इदानीम् उप एति इत्यत्र उप इति वृद्धिसन्धिः भवति। इदानीम् अग्रिम उदाहरणं पश्यामः। उप एधते इति, एत्येतत्युट्सु मध्ये एधति, एधते इति एजादिः धातुः, एद्धातुः अस्ति, अतः वृद्धिः भवति, उपैधते इति भवति। इदानीम् ऊह ऊट्सु इत्यत्र ऊट्सु नाम किम् ऊहा इति उदाहरणम् ऊट् इत्यस्य वर्तते इदानीं प्र प्रष्ट ऊहः प्रष्ट ऊहः आ अकार उकारयोः सन्धिः भवति चेत् गुणः भवति प्रष्टोहः इति भवेत् परन्तु एत्येतत्युट्सु इत्यनेन वृद्धिः भवति प्रष्टौहः इति भवति एवं प्रकृतसूत्रेण अकार उकारयोः स्थाने प्रष्टौहः इति रूपसिद्धिः भवति इदानीम् एत्येतत्युट्सु इति सूत्रस्य कार्यद्वयं विद्यते तर्हि यदि अकारात्वा आकारात्वा आकारात् येजादि एकारादि वा ऐकारादि वा येजादि नाम एकारादिः ऐकारादिः वा इण् धातुः वा येज् धातुः वा भवति तर्हि पूर्वपरयोः स्थाने वृद्धिः भवति येङि पररूपम् इति सूत्रस्य अपवादः येङि पररूपम् इति सूत्रस्य अपवादात्मकनियमः एषः यदि अकाराद्वा अकाराद्वा सम्प्रसारणम् सम्प्रसारणम् नाम इग्यणसम्प्रसारणम् इति उच्यते इदानीम् यण् नाम किम् उकारस्य स्थाने वकारः सम्प्रसारणम् इस् आक्चुलि आपोसिट् आफ् यण् सम्प्रसारणम् नाम वकारस्य स्थाने उकारः यदि आगच्छति चेत् सम्प्रसारणम् इति उच्यते पाणिनिव्याकरणे इदानीं यण् नाम किम् यकार यण् वर्णाः नाम इव् ऋल् यण् वर्णाः वकारस्य उकारस्य स्थाने वकारः भवति यण् सन्धौ तथा यदि वकारस्य स्थाने यदि उपकारः भवति रिवर्स् आफ् यण् यदि भवति चेत् सम्प्रसारणम् इति उच्यते सम्प्रसारणम् यत्र वर्तते ऊहा इत्यत्र सम्प्रसारणम् विद्यते वह धातोः सम्प्रसारणम् उकारः वकारस्य उकारः तदा यदि सम्प्रसारणम् भवति पूर्वपरयोः स्थाने वृद्धिः भवति इति अत्र उच्यते अत्र उदाहरणमेवमस्ति इदानीं पश्यन्तु प्रष्ठ ऊहः इदानीम् ऊहः इति शब्दः ऊहशब्दः वह धातोः ऊहः इति आगच्छति एवम् अकारात् परम् ऊकारः विद्यते अवर्णः ऊट् भवति एवं प्रष्ठौहः इति रूपसिद्धिः भवति प्रष्टोहः इति स्थाने प्रष्टौहः इति भवति यदि एतत् सूत्रं न विद्यते एत्येतत्युट्सु इति सूत्रं न विद्यते तर्हि किं भवेत् इति पश्यामः प्र प्लस् उपायेति इत्यत्र उपेति इति भवेत् यतोहि येङि पररूपम् इति रूप सूत्रानुसारेण उपेति इति भवेत् उपायेधते इत्यत्रापि उपेधते इति भवेत् एवं प्रष्ट ऊहः इत्यत्रापि प्रष्टोहः इति भवेत् इदानीम् एत्येतत्युट्सु आगत्य किं करोति अत्र वृद्धिं करोतु इति वदति एवम् एत्येतत्युट्सु इत्यत्र वृद्धिः वृद्धिविधायकं सूत्रम् एतत् इदानीम् एत्येतत्युट्सु इत्यत्र सूत्रार्थः एव कथं वर्णितः पुनः पश्यामः सूत्रार्थं पुनः पश्यामः उदाहरण अवर्णात् एजाद्योः एत्येतत्योः ऊटि च परे वृद्धिः एकादेशः स्यात् इति अस्ति इदानीम् एजाद्योः एदत्योः एति एदति इति सूत्रे उक्तम् एति इति शब्दः एति इति शब्दस्य एकारादित्वमस्ति एदति इति शब्दस्य एकारादित्वमस्ति किमर्थम् पुनः एजादिः इति उच्यते इति प्रश्ने कृते एतादृशप्रश्नाः इदानीं प्रप्रथमतया लघुसिद्धान्तकौमुद्याम् एतादृशप्रश्नाः आगताः एजादौ किम् इदानीं सूत्रार्थे प्रत्येकस्मिन् शब्दानां सार्थक्यं चिन्त्यते। यदि येजादौ इति किमर्थम् उच्यते, किमर्थम् उच्यते अस्माभिः, तद् न वक्तव्यम् इति पूर्वपक्षिणः आशयः। पूर्वपक्षी नाम पूर्वपक्षी वन् हू क्वश्चन्स्, सः प्रश्नं पृच्छति किमर्थम् एतया रीत्या अस्माभिः सूत्रार्थः वर्णितः इति पूर्वपक्षी पृच्छति। इदानीं एजादौ किम् इति पृष्ट्वा तदा प्रत्युदाहरणं वरदराजमहोदयः प्रत्युदाहरणं ददाति। प्रत्युदाहरणं नाम एन उदाहरणं विच् इस् नाट् अप्लिकबल् टु दिस् सूत्र। इदानीं एजादिः इति कथ्यते, उप इतः इति स्वीकुर्मः। इतः इति इणुधातोः एव रूपम्। इदानीं लट्लकारस्य प्रथमपुरुषस्य एति इतः यन्ति इति रूपमस्ति। इदानीं प्रथमपुरुषस्यैव रूपमस्ति, एवमेव तान्तं रूपम्। तान्तं नाम तप्रत्ययान्तं रूपम् इतः इति वर्तते। अतः अत्र इदानीं प्रश्नः उदेति, अत्र एति इत्यनेन अत्र इणुधातोः एव रूपमस्ति, तर्हि किम् अत्रापि वृद्धिः करणीयः वा इति प्रश्नः भवति। वृद्धिः यदि भवति अत्रापि, यदि एजादिः इति न उच्यते, तर्हि अत्रापि वृद्धिः स्यात्, एवम् अनिष्टरूपं स्यात्। अस्माकं किं रूपम् इष्टम् अत्र? उपेतः इति रूपम् इष्टम् एका। अतः अत्र अस्माकं गुणः एव भवेत्, न तु वृद्धिः। अतः प्रकृतसूत्रेण वृद्धिः न भवति, यतोहि अत्र एजादिः नास्ति, इतः अस्ति। इतः इति इण्धातोः एव रूपम्, परन्तु एजादिः नास्ति। अतः किं भवति अत्र? गुणः भवति वा वृद्धिः भवति वा? उप इतः इत्यत्र गुणः वा वृद्धिः वा? गुणः, हा गुणः भवति। वृद्धिः किमर्थं न भवति? धातुः तत्र इण् धातोः रूपं एजादिः नास्ति। एजादिरहितत्वात् अत्र गुणः एव भवति। एवं सूत्रार्थे एजादेः अनुकरणम्, इदानीं एजादेः एजादौ इति सूत्रार्थे अस्माभिः उक्तं, तद् अवश्यम् अस्माभिः वक्तव्यम् इति निर्णयः। एवमेव मा भवान् प्रेदिदत् इति मूले अस्ति। मा भवान् प्रेदिधत्, प्र इदिधत् इत्यत्र इदिधत् इति निजन्तस्य एत् धातोः लुङ्लकारस्य प्रथमपुरुषस्य एकवचनस्य रूपं भवति। अत्रापि इदिधत् इत्यत्र एजादिः नास्ति, एत् धातोः एव रूपं तत्, परन्तु एजादित्वं नास्ति। अतः अत्रापि वृद्धिः एकादेशः न भवति, गुणः एव भवति, प्रेदिधत् इति रूपं सिध्यति। एवम् अनिष्टस्य व्यावृत्तिः भवति। यदि अत्र एजादौ इति न कथ्येत, तर्हि उभयत्रापि उपैतः प्रैदिधत् इति रूपं स्यात्, तद् अस्माभिः न इष्टम्। प्रयोगशरणाः वैयाकरणाः, वैयाकरणाः किं कुर्वन्ति? प्रयोगं दृष्ट्वा सूत्रं रचयन्ति, सूत्रेण इष्टसिद्धिः साधयन्ति। अत्र महर्षिप्रयोगः एवं विद्यते। अतः अस्माभिः किम् अत्र एजादौ इति स्वीकरणेनैव अनिष्टव्यावृत्तिः भवति इति उपसंहारः। इदानीम् अग्रिमवार्तिकं वार्तिकमस्ति अस्मिन् सूत्रे एव, अक्षादूहिन्यादुपसङ्ख्यानम् इति। अक्षादूहिन्यामुपसङ्ख्यानम्, अक्षात् इत्यत्र पञ्चमीविभक्ति एकवचनं, वार्तिकमेतत्। ऊहिन्यां सप्तमी एकवचनं, उपसङ्ख्यानम्, उपसङ्ख्यन्नाम उपसङ्ख्यानं कर्तव्यम्। अत्र अस्मिन् सूत्रे ഏത്യേതത്യൂട്സു ഇതി സൂത്രേ അക്ഷാദൂഹിന്യാദുപസംഖ്യാനം അക്ഷൗഹിണി ഇതി ഏകം ഉദാഹരണം വിദ്യത്തെ. അക്ഷൗഹിണി നാമ സേനായാഹ പരിമാണം വിദ്യത്തെ. തത്ര ഭഗവത്ഗീതായാം സർവേ ജാനന്തി അക്ഷൗഹിണി അക്ഷൗഹിണി സേന ഇതി. അക്ഷൗഹിണി നാമ കിം? അക്ഷൗഹിണി നാമ 2021870 ചാരിയറ്റ്സ് ഇത്യാദികം കിമപി രേഷ്യോ വിദ്യത്തെ. ഏതാദൃശ സേനായാഹ നാമ അക്ഷൗഹിണി ഏകം അക്ഷൗഹിണി ഇതി ഉച്യത്തെ. ഇദാനീം യദി അക്ഷശബ്ദാത് ഊഹിണി ശബ്ദേ പരേ അകാര ഉകാരയോഹ കിം ഭവേ ഭവേത് ഗുണഃ ഭവേത്. പരന്തു അക്ഷാദൂഹിന്യാദ് ഉപസംഖ്യാനം ഇതി വാർത്തികേന ഗുണഃ ന ഭവതി വൃദ്ധിഹി ഏവ ഭവതി അക്ഷൗഹിണി ഇതി രൂപസിദ്ധിഹി ഭവതി. അവഗതം വാ? ഏവം അക്ഷാദൂഹിന്യാം ഉപസംഖ്യാനം ഇതി സൂത്രേണ ഏകമേവ ഉദാഹരണമസ്തി ഇതി സൂത്രേണ ന ഇതി വാർത്തികേ വാർത്തികഃ വാർത്തികം പ്രവൃത്തം കിമർത്ഥം ഇത്യുക്തേ അക്ഷൗഹിണി ഇതി ശബ്ദസ്യ സാധുത്വ സമ്പാദനാർത്ഥം. This Vartika has been specially composed by Vartikakara as he understands the limitation of the sutra composed by Panini Yetyedatyutsu. Seeing the sutra Yetyedatyutsu that it is incomplete and does not cater to Akshauhini Rupa Siddhi, Vartikakara says Akshaduhinyad Upasankhyanam Kartavyam. That means Aksha, when Aksha and Uhini Shabda are there together, it has to attain Vriddhi. So this is upasankhyanam nama, it has to be added. It has to be added where? It has to be added as a part of the sutra. So how can you add through a vartika? The vartika statement is akshaduhinyam upasankhyanam. Vartikam asti akshaduhinyad upasankhyanam iti. Yetad vartikam akshauhini iti udaharanasya ekasya eva sadhutva nirnayaya pravrut. പ്രവൃത്തമസ്തി ഏതത് വാർത്തികം. ഇദാനീം ഏവമേവ പ്രാദുഹോഡോഢ്യേഷു ഇതി വാർത്തികമപി അസ്തി. അത്ര പ്രാദ് ഊഹ ഊഢ ഊഢ്യ ഏഷ ഏഷ്യേഷു ഇതി പദം വിദ്യത്തെ. അത്ര കിം ഇത്യുക്തെ പ്ര ഇതി ഉപസർഗഃ അസ്തി. ഊഹ ഊഢ ഊഢ്യ ഏഷ ഏഷ്യ. ഇദാനീം പ്ര ഇതി ശബ്ദസ്യ അന്ത്യാത് അവർണാത് ഊഹ ഊഢ ഊഢി ഏഷ ഏഷ്യ ശബ്ദാനാം ആദൌ ഏചി പരേ കിം ഭവതി പൂർവപരയോഃ സ്ഥാനേ വൃദ്ധിഹി ഭവതി. ഇദാനീം അത്ര പശ്യതു ഊഹ ശബ്ദസ്യ ഊഹ വിതർക്കേ ഇതി അർത്ഥഃ. ഊഢ ശബ്ദസ്യ വഹ പ്രാപണേ ഇത്യർത്ഥഃ. ഊഢി ശബ്ദസ്യ വഹ പ്രാപണേ ഇത്യർത്ഥഃ. ഏഷ ശബ്ദസ്യ ഇഷ ഇച്ഛായാം ഇത്യർത്ഥഃ. ഏഷ്യ ഇത്യപി ഇച്ഛായാം ഇത്യർത്ഥഃ. പ്ര ഇതി ഉപസർഗാത് ഊഹ ഊഢ ഊഢി ഏഷ ഏഷ്യ ഇത്യേതേഷു പരേഷു വൃദ്ധിഹി ഏവ ഭവതി. ഇദാനീം അകാര ഊകാരയോഃ അകാര ഊകാരയോഃ ഊഹ ഊഢ ഊഢിഹി ഏതത് കസ്യ അപവാദഃ? ഊഹ ഊഢ ഊഢ്യ പ്ര ഊഹ. ഇദാനീം പ്രൌഹ പ്രൌഢ 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 ഗുണസ്യ അപവാദഃ. അസ്തു സമ്യക് ഉക്തം. പ്രൌഢിഹി പ്രൌഢിഹി. ഇദാനീം യദി യദി വൃദ്ധിഹി ന സ്യാത് തർഹി കിം സ്യാത് ഇതി പ്രശ്നേ കൃതേ ഗുണഃ സ്യാത്. യദി വൃദ്ധിഹി ന സ്യാത് കിം സ്യാത് ഗുണഃ സ്യാത്. അതഃ ഇദാ ഏതദ് വാർത്തികം കിം കരോതി ഏതാദൃശ സ്ഥലേഷു കൃപയാ ഗുണം മാ കുർവന്തു വൃദ്ധിരേവ കുർവന്തു വൃദ്ധിഹി ഏവ സാധുഃ ഗുണഃ അസാധു ഇതി ഉച്യതെ. പ്രാദ് ഊഹോഡോഢ്യൈഷ്യേഷു ഇതി വാർത്തികം വിദ്യതെ. ഇദാനീം പ്ര ഏഷഃ പ്ര ഏഷ്യഃ ഇത്യത്ര ഏങ്ങി പരരൂപം ഇതി സൂത്രേണ പരരൂപസന്ദേഹേ അപവാദഃ വിദ്യതെ. ഏവം ഗുണ പരരൂപ ഗുണാപവാദഃ ഇതി മൂലേ അസ്തി. പരരൂപ ഗുണാപവാദഃ നാമ പരരൂപസ്യ ഗുണസ്യ ച അപവാദഃ ഏതദ് വാർത്തികം ഇതി ഉച്യതേ. इदानीं ऋतेच तृतीया समासे इति अग्रिमं वार्तिकं विद्यते। ऋतेच तृतीया समासे इत्यत्र पदत्रयं विद्यते। ऋते सप्तविभक्ति एकवचनं, तृतीया समासे इति सप्तविभक्ति एकवचनम्। इदानीं किं भवति, एतद् वार्तिकम् अग्रिमकक्षायां कुर्मः, यतोहि इदानीं प्रारभ्यते चेत् उदाहरणम् इत्यादिकं वक्तुं दशनिमिषं भवति, तर्हि अग्रिमवार्तिकमपि अस्ति, अतः अग्रिमकक्षायां कुर्मः। अस्माकं कक्षासु विघ्नाः न भवेत्, एतादृश आडियो विघ्नाः, विद्युत् विघ्नाः, विघ्नाः न भवेत् इति कृपया प्रार्थनां कुर्वन्तु सर्वे। भगवतः कृपया एव एतत् एषा कक्षा प्रचलति, कृपया प्रार्थनां कुर्वन्तु। भवन्तः सर्वे प्रार्थनां कुर्वन्ति चेत् अवश्यं निर्विघ्नेन कक्षा चाल्यते, कृपया प्रार्थनां कुर्वन्तु। अस्माभिः मङ्गलाचरणमपि सम्यक् करणीयम्। नत्वा सरस्वतीं देवीम्, वाट् इस् द डिफरेन्स् इन् वार्तिकम् अण्ड् सूत्रम्? सूत्रम् इस् कम्पोस्ड् बै पाणिनि, वार्तिकम् इस् कम्पोस्ड् बै वररुचि आर् कात्यायन। सूत्रम् नौ सूत्रम् तद् प्रथम आदौ कक्षात्रयं वा कक्षाचतुष्टय मध्ये एतत् सर्वम् उक्तं व्याकरणस्य इन्ट्रोडक्षन् मध्ये। इदानीं वार्तिककारः इति वररुचिः अस्ति, सूत्रकारः इति पाणिनिः, भाष्यकारः पतञ्जलिः, मुनित्रयं व्याकरणम् इति अस्माकं व्याकरणं। तत्र वार्तिककारः किं करोति, सूत्रं परिशील्य वार्तिकानां सहायेन किम् उक्तानुक्तदुरुक्तानां सः किञ्चित् अधिकं कदापि किञ्चित् लक्ष्यं दृष्ट्वा सः वदति, पाणिनिना एतदेकं त्यक्तम्, एतदेकं त्यक्तम् इति वदति। तदा भाष्यकारः किं करोति, यदि समीचीन पाणिनेः किमपि अभिप्रायः अस्ति चेत् तत् निरूपयति, न त्यक्तम् इति वदति, नो चेत् वार्तिककारम् अङ्गीकृत्य एवम् एवम् अस्तु अवश्यं स्वीकरणीयम् इति भाष्यकारः अङ्गीकरोति। एतत् सर्वं महाभाष्ये भवति। एवम् अस्मिन् सूत्रे वार्तिककारेण यत् उक्तम्, एतत् स्वीकर्तव्यम्, अक्षौहिणी अक्षादोहिन्याम् उपसङ्ख्यानम् इति स्वीकर्तव्यम् इति यदुक्तं, तत्सर्वं भाष्यकारेणापि अङ्गीकृतम्, अतः अस्मिन् पुस्तके अपि विद्यते। तत्र अस्मिन् सूत्रे एव वार्तिकत्रयं वा वार्तिकचतुष्टयं वा वार्तिककारेण उक्तम् इति। तत्र बहूनि वार्तिकानि सन्ति, प्रत्येकस्मिन् सूत्रे बहूनि वार्तिकानि सन्ति, परन्तु महाभाष्यकारः पाणिनि आचार्यं पाणिनिं किं करोति, सः समर्थयति, पाणिनेः अभिप्रायं समर्थयति, वार्तिकस्य आवश्यकता कदाचित् न भवति इति सः वदति। अवगतं वा? हा, उपसङ्ख्यानमिति संख्याविशेषः वा? न न न, उपसङ्ख्यानमिति संख्याविशेषः न, उपसङ्ख्यानम् इत्युक्ते योजनीयम् इत्यर्थः। अस्तु, अग्रिमबुधवासरे कक्षा भविष्यति, कृपया सर्वे आगच्छन्तु। एतत् पुनः अत्र अप्लोड् करोमि, एतत् नत्वा सरस्वतीं देवीं।